गणानां त्वा गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणाम् ब्रह्मणस्पत आनः शृण्वन्नोतिभिः सेदसादनम् प्रणो देवे सरस्वते वाजेभिर्वाजिनीवते धेनामवित्र्यवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमण्यव उतो त इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यातयिषु शिवतमा शिवम् बभूवते धनुः शिवाचरव्यायातवतया नो रुद्रमृडया या ते रुद्रशिवा तनूरघोरा पापकाशिनी तया नस्तनुवाचन्तमया गिरिशन्ताभिजागजेः यामिषुम् गिरिशन्तहस्तेऽभिपश्यस्तवे शिवाङ्गिरित्रताम् कुरुमाहि गुंसिः पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्छा वदामसि यथा न सर्वमिज्जगत यक्ष्मगुम् सुमनाचत् अध्यवोचदधिवक्ता प्रथमो देव्योऽभिषक् अहेगुश्च सर्वान् जम्भयन् सर्वाश्च यातु धान्यः असव्यस्ताम्रो अरुण उत बभृत्सु मङ्गलः ये चे मागुम् रुद्रा अभितो दिक्षुश्रितात् सहस्रशो वैशागुम् हेडये महे असव्योपसर्पति नीलग्रीवो विलोहितः उदैनम् गोपा अदृशन्नदृशन्नुदहार्यः उदैनम् विश्वा भूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीधुषे अधोगे अस्य सत्त्वानोह तेभ्यो करन् नमः प्रमुञ्चदन्ननस्त्वमुभयोरात्रियोर्ज्याम् याश्च ते हस्त इषवः पराता भगवो वपा अवतत्यधनुस्त्वगुम् सहस्राक्षशतेषु धे निषेव्य शल्याणामुखा शिवो न सुमना भव विज्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येषव आभुरस्य निशम् गतिः या देहे दिर्मे दुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधायाना तथाय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अधो यगिषुधिस्तवारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्यु ఆదిత్యం జయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీమన్మహాదేవాయ నమః. నమో హిరణ్యవాహవే నాన్యే దిశాం చ పతయే నమో నమో వృక్షేభ్యో హరికేశేభ్య పశూనాం పతయే నమో నమః. సత్పింజరాయ త్విషీమతే పథీనాం పతయే నమో నమో. బభ్లుషాయ వివ్యాధినేన్నానాం పతయే నమో నమో. హరికేశాయోపవేదిని పుష్టానాం పతయే నమో నమో. భవస్య హేత్యై జగతాం
పతయే నమో
నమో. రుద్రాయాతతావినేక్షేత్రాణాం పతయే నమో నమః. సూతాయాహంత్యాయవనానాం పతయే నమో నమో. రోహితాయత్సపతయే వృక్షాణాం పతయే నమో నమో. మంత్రిణే వాణిజాయ కక్షాణాం పతయే నమో నమో. భువంతయే వారివ కృతాయౌషధీనాం పతయే నమో నమ. ఉచ్చైర్ఘోషాయాక్రందయతే భక్తీనాం పతయే నమో నమ. కృష్ణవేతాయ ధావతే సత్వనాం పతయే నమః. నమః సహమానాయ నివ్యాధిన ఆవ్యాధినీనాం పతయే నమో నమ. కకుభాయ నిషంగినే సేనానాం పతయే నమో నమో. నిషంగిన ఇషుధిమతి తస్కరాణాం పతయే నమో నమో. వంచతే పరివంచతే స్థాయూనాం పతయే నమో నమో. నిచేరవి పరిచరాయారణ్యానాం పతయే నమో నమ. శృకాభిభ్యోజిఘాగు సద్భ్యోముష్ణతాం పతయే నమో నమో. శ్రీమద్భ్యో నక్తం జలభ్య ప్రకృంతానాం పతయే నమో నమ. ఉష్ణీషిణే గిరిచరాయ కులుంజానాం పతయే నమో నమ. ఇషు మద్భ్యోధన్వాభిభ్యశ్చ వో నమో నమ. ఆదన్వానేభ్య ప్రదిదధానేభ్యశ్చ వో నమో నమ. ఆయచ్చద్భ్యో విసృజద్భ్యశ్చ వో నమో. నమోస్యద్భ్యో విద్యద్భ్యశ్చ వో నమో నమ. ఆసీనేభ్య
శయానేభ్యశ్చ వో నమో
నమ. స్వపద్భ్యో జాగ్రద్భ్యశ్చ వో నమో నమ. స్థిష్టద్భ్యో ధావద్భ్యశ్చ వో నమో నమ. సభాభ్య సభాపతిభ్యశ్చ వో నమో నమో. అశ్వేభ్యో అశ్వపతిభ్యశ్చ వో నమః. నమ ఆవ్యాధినేభ్యో వివిధ్యంతేభ్యశ్చ వో నమో నమ. ఉగణాభ్యస్త్రిగుంహదేభ్యశ్చ వో నమో నమో. గృత్సేభ్యో గృత్సపదిభ్యశ్చ వో నమో నమో. వ్రాతేభ్యో వ్రాతపదిభ్యశ్చ వో నమో నమో. గణేభ్యో గణపతిభ్యశ్చ వో నమో నమో. విరూపేభ్యో విశ్వరూపేభ్యశ్చ వో నమో నమో. మహద్భ్యః శుల్లకేభ్యశ్చ వో నమో నమో. రథిభ్యో రథేభ్యశ్చ వో నమో నమో.
రథేభ్యో రథపతిభ్యశ్చ వో నమో నమ.
సేనాభ్యసేనానిభ్యశ్చ వో నమో నమ. శత్రుభ్యః సంగ్రహేతృభ్యశ్చ వో నమో నమ. సక్షభ్యో రథకారేభ్యశ్చ వో నమో నమ. కులాలేభ్య కర్మారేభ్యశ్చ వో నమో నమ. పుణ్యిష్టేభ్యో నిషాదేభ్యశ్చ వో నమో నమ ఇషుకృద్భ్యో ధన్వకృద్భ్యశ్చ వో నమో నమో మృగయుభ్య స్వనిభ్యశ్చ వో నమో నమ శ్వభ్యశ్వపతిభ్యశ్చ వో నమః నమో భవాయ చ రుద్రాయ చ నమః శర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ శితికంఠాయ చ నమః కపర్దినే చ ప్యుప్తకేశాయ చ నమః సహస్రాక్షాయ చ శతధన్వనే చ నమో గిరిశాయ చ శిపిభిష్టాయ చ నమో మీఢుష్టమాయ చేషుమతే చ నమో హ్రస్వాయ చ వామనాయ చ నమో బృహదే చ వర్షేయతే చ నమో వృద్ధాయ చ సంవృద్ధ్వనే చ నమో అగ్ర్యాయ చ ప్రథమాయ చ నమ ఆచవే చాచిరాయ చ నమ శీఘ్ర్యాయ చ శేభ్యాయ చ నమ ఓర్మ్యాయ చ వత్స్వన్యాయ చ నమ శ్రోతస్యాయ చ ద్వేభ్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్టాయ చ నమ పూర్వజాయ చ
పరజాయ చ నమో
మధ్యమాయ చ పగల్భాయ చ నమో జగన్యాయ చ బుద్ధ్యాయ చ నమ సోభ్యాయ చ ప్రతిసర్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమ ఉర్వర్యాయ చ ఖల్యాయ చ నమ శ్లోక్యాయ చ వసాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమ శ్రవాయ చ ప్రతిశ్రవాయ చ నమ ఆశుషేనాయ చాశురధాయ చ నమ శూరాయ చావబిందతే చ నమో వర్మిణే చ వరోధినే చ నమో భిల్మినే చ కవచినే చ నమ శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుందుభ్యాయ చ కనన్యాయ చ నమో దృష్ణవే చ రమృషాయ చ నమో దూతాయ చ ప్రహితాయ చ నమో నిషంగినే చేషుధిమతే చ నమ తీక్ష్ణే చ వేచాయుధినే చ నమ స్వాయుధాయ చ సుధన్వనే చ నమ శ్రుత్యాయ చ పథ్యాయ చ నమ కాట్యాయ చ నీప్యాయ చ నమ శూద్యాయ చ సదస్యాయ చ నమో నాద్యాయ చ వైశంతాయ చ నమ కోప్యాయ చ
వ్యాయ చ నమో
వర్ష్యాయ చ వర్ష్యాయ చ నమో మేఘ్యాయ చ విద్యుత్యాయ చ నమ ఏధ్యాయ చ తప్యాయ చ నమో వాత్యాయ చ రేష్మ్యాయ చ నమో వాస్తవ్యాయ చ వాస్తుపాయ చ ఓం హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమః సాంబ్రాయ చ అరుణాయ చ నమః శంగాయ చ పశుపతయే చ నమ ఉగ్రాయ చ భీమాయ చ నమ అగ్రే వధాయ చ దూరే వధాయ చ నమ హంద్రే చ హనీయసే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమస్కారాయ నమ శంభవే చ మయో భవే చ నమ శంకరాయ చ మయత్ కరాయ చ నమ శివాయ చ శివతరాయ చ నమ తీర్థ్యాయ చ గోల్యాయ చ నమ పార్యాయ చ పార్యాయ చ నమ ప్రతరణాయ చోత్తరణాయ చ నమ ఆతార్యాయ జాలాద్యాయ చ నమ షట్యాయ చ భేన్యాయ చ నమ శిఖత్యాయ చ प्रवाग्याय च नम हिरण्याय च प्रपत्याय च नम किगुंशिराय च क्षयणाय च नम कपर्दिने च पुलस्तये च नमो
गोष्ठ्याय च गृह्याय च
नमस्तल्प्याय जगेख्याय च नम काट्याय जगत्वरेष्ठाय च नमो हृदय्याय च निवेश्याय च नम पागुंहव्याय च रजस्याय च नम शुष्क्याय च हरित्याय च नमो लोप्याय ज्वलप्याय च नम ओर्व्याय च सौर्म्याय च नम पर्ण्याय च पर्णशद्याय च नम पगुरमाणाय चाभिघ्नते च नम आखिदते च प्रखिदते च नमो वक्षिरिकेभ्यो देवानागम् हृदयेभ्यो नमो विक्षेणगेभ्यो नमो विचिन्नकेभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः
द्रापे
अन्धसस्पदे दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् माभेर्मा रोमो येषाम् किञ्चनाममत् या ते रुद्रशिवा तनु शिवा विश्वाकभेषजे शिवा रुद्रस्य भेषजे तया नो मृणजीवसे किमागुम् रुद्राय तवसे कपर्दिने शयद्वीराय प्रवरामहे मतिम् यथा न क्षमसद्विपदे च दुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रोदनो मयस्कृते क्षयद्वीराय नमसा विधेमते यच्चम् च योश्च मनुराय जे पिता तदश्यामतव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् मोदमातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोके तनये मान आयुषि मानो गोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रभामितो वदेर्हविष्मन्तो नमसा विधेमते आरात्ते गोग्नमुत पूरुषग्ने शयद्वीराय सुम् नमस्मेते अस्तु रक्षाजनो अधि च देव ब्रूह्यथा च न शर्म यच्छद्विभरुहाः स्तुहि श्रुतम् गर्त सतम् युवानम् मृगन्न भीममुपहत्नमुग्रम्
मृडाचरित्रे
रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतुर्वृणक्तु परित्वेषस्य दुर्मदिरघायोः अवस्थिरामगवद्यत्तनुष्वमेद्वत्सोकायतनयाय मृडया मीनुष्टमशिवतमशिवो न सुमना भव परमे वृक्ष आयुधन्निधाय कृत्यम् वसा नमाचर पिनाख बिभ्रदागहि विकिरित विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुह्येतयोऽन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचीनामुखागृदे सहस्राणि सहस्रशोगे रुद्रा अधिभूम्या तेषागुम् सहस्रयोजने वसन्मानि तन्मसे अस्मिन्महत्यर्णवेन्दरिक्षे भवाधे नीलग्रेवाशिति कण्ठा चर्वाधः क्षमाचराः नीलग्रीवाचिति कण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकास कपर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु विपदो जनान् ये पथाम् पतिरक्षय ऐलभृदायव्युधः ये तीर्थाणि प्रजरन्ति शृगावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्थिरे तेषागुंसहस्रयो जने बधन्मानि दन्मसे नमो रुद्रेभ्यो गे पृथिव्याम् गेन्तरिक्षे गे दिव्ये शावन्नम् पातो वरुषमिषवस्तेभ्यो दश प्राजेर्दश दक्षिणा दश प्रदेचेर्दशोदेचेर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृणयन्तु देयम् ग्रीष्मो यश्च नो द्वेष्टितम् भोजम् वेदधामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षे यमामृतात् यो रुद्रो अग्नौ यो अप्सु य ओषधेषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्यो मर्त्याय हन्तवे तान् यज्ञस्य मायया सर्वानवयजामहे मृत्यवेत् स्वाहा मृत्यवेत् स्वाहा प्राणानाम् ग्रन्थिरधिरुद्रो मा विशान्तकः तेनान्येनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि समुष्टु हि यत्सुषुत्सु धन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशो मनसाय रुद्र नमोभिर्देवमसुरन्दुमस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजो यगुम् शिवाभिमरुषणः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोषसे मा वर्धन्तु वाङ्गिरः ज्युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे शुभश्च मे प्राणश्च मे पानश्च मे ज्ञानश्च मे सुश्च मे चित्तम् च म आधीतम् च मे वाक् च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च म ओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोपुंसि च मे शरीराणि च मे ज्येष्ठम् च म आधिपत्यम् च मे मन्यश्च मे भामश्च मे मश्च मेऽम्भश्च मे जेमा च मे महिमा च मे परिमा च मे प्रथिमा च मे वश्मा च मे द्राघुया च मे
वृद्धं च मे वृद्धिश्च मे सत्यं च मे श्रद्धा च मे जगच्च मे धनं च मे वशश्च मे त्विषश्च मे क्रीडा च मे मोदश्च मे जातं च मे जनिष्यमाणं च मे सूक्तं च मे सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच्च मे सुखं च मे सुपतं च मरुद्धं च मरुद्धिश्च मे क्लुप्तं च मे क्लुप्तिश्च मे मतिश्च मे सुमतिश्च मे शं च मे मयश्च मे प्रियं च मे नु कामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे गन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे सोश्च मे प्रसोश्च मे सेनं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुखं च मे शयनं च मे सोषा च मे सुधिनं च मे ऊर्च मे सोनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सग्रश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रं च मौद्भिद्यं च मे रयश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भोजश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कोजवाश्च मेनं च मे शुच्च मे व्रीहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे नीवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे श्रीसं च मे त्रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च म आपश्च मे विरुधश्च म ओषधयश्च मे कृष्टपच्यं च मे कृष्टपच्यं च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एमश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवे च म इन्द्रश्च मे अन्तरिक्षं च म इन्द्रश्च मे ज्योश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे ప్రజాపతిశ్చ మ ఇంద్రశ్చ మే అగుంసశ్చ మే
రశ్మిశ్చ మే దాభ్యశ్చ మే
విపతిశ్చ మ ఉపాగుంసశ్చ మే అంతర్యామశ్చ మ ఐంద్రవాయవశ్చ మే మైత్రావరుణశ్చ మ ఆశ్వినశ్చ మే ప్రతిప్రస్థానశ్చ మే శుక్రశ్చ మే వంతే చ మ ఆగ్రయణశ్చ మే వైశ్వదేవశ్చ మే ధ్రువశ్చ మే వైశ్వానరశ్చ మరుత్ గహాశ్చ మేతి గ్రాహ్యాశ్చ మ ఐంద్రాగ్నశ్చ మే వైశ్వదేవశ్చ మే మరుత్వతీయాశ్చ మే మాహేంద్రశ్చ మ ఆదిత్యశ్చ మే సావిత్రశ్చ మే సారస్వతశ్చ మే పౌష్ణశ్చ మే పాత్నీభతశ్చ మే హార్యోజనశ్చ మే ఇద్మశ్చ మే బర్హిశ్చ మే వేదిశ్చ మే దిష్నిజాశ్చ మే సృజశ్చ మే చమసాశ్చ మే గ్రావాణశ్చ మే స్వరవశ్చ మ ఉపరవాశ్చ మే దిశవణే చ మే ద్రోణకలశశ్చ మే వాయవ్యాని చ మే పోతవృశ్చ మ ఆధవణీయశ్చ మ ఆగ్నేర్ఘం చ మే అవిర్ధానం చ మే గృహాశ్చ మే సదశ్చ మే పురోడాశాశ్చ మే పచతాశ్చ మే బభృతశ్చ మే స్వగాకారశ్చ మే అగ్నిశ్చ మే ఘర్మశ్చ మేర్కశ్చ మే సూర్యశ్చ మే ప్రాణశ్చ మే స్వమేధశ్చ మే పృథివీ చ మే దితిశ్చ మే దితిశ్చ మే ద్యౌశ్చ మే శక్వరీరంగులయోదిశశ్చ మే యజ్ఞేన కల్పంతాం నృక్ష మే సామ చ మే స్తోమశ్చ మే యజుశ్చ మే దీక్షా చ మే తపశ్చ మరుతుశ్చ మే వ్రతం చ మే హోరాత్రయో వృష్ట్యా బృహద్రదంతరే చ మే యజ్ఞేన కల్పేతాం గర్భాశ్చ మే వత్సాశ్చ మే త్రయవిశ్చ మే త్రయవీ చ మే దిత్యవాచ్చ మే దిత్యౌనీ చ మే పంచావిశ్చ మే పంచావీ చ మే త్రివత్సశ్చ మే త్రివత్సా చ మే తుర్యవాచ్చ మే తుర్యౌహీ చ మే పష్టవాచ్చ మే పష్టౌహీ చ మ ఉక్షా చ మే వశా చ మ ఋషభశ్చ మే వేహశ్చ మే నడ్వాన్ చ మే ధేనుశ్చ మ ఆయుర్యజ్ఞేన కల్పతాం ప్రాణ యజ్ఞేన కల్పతామపాన యజ్ఞేన కల్పతాం వ్యానో యజ్ఞేన కల్పతాం చక్షుర్యజ్ఞేన కల్పతాగుశ్రోత్రం యజ్ఞేన కల్పతాం మనోయజ్ఞేన కల్పతాం వాగ్యజ్ఞేన కల్పతాం ఆత్మా యజ్ఞేన కల్పతాం యజ్ఞో యజ్ఞేన కల్పతాం ఏకా చ మే తిస్రశ్చ మే పంచ చ మే సప్త చ మే నవ చ మ ఏకాదశ చ మే త్రయోదశ చ మే పంచదశ చ మే సప్తదశ చ మే నవదశ చ మ ఏకవిగుంశతిశ్చ మే త్రయోవిగుంశతిశ్చ మే పంచవిగుంశతిశ్చ మే సప్తవిగుంశతిశ్చ మే నవవిగుంశతిశ్చ మ ఏకత్రిగుంశచ్చ మే త్రయస్త్రిగుంశచ్చ మే చతస్రశ్చ మే స్తౌ చ మే ద్వాదశ చ మే షోడశ చ మే విగుంశతిశ్చ మే చతుర్విగుంశతిశ్చ మే సావిగుంశతిశ్చ మే ద్వాత్రిగుంశచ్చ మే షట్త్రిగుంశచ్చ మే చత్వారిగుంశచ్చ మే చతుశ్చత్వారిగుంశచ్చ మే స్తా చత్వారిగుంశచ్చ మే वाजश्च प्रसवश्चापि जश्च क्रतुश्च सुवश्च मूर्धा च व्यश्नियश्चान्त्यायनश्चान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च इडा देवहोर्मनुर्यज्ञनिर्बृहस्पतिरुक्तामदानिशगुंसि षद्विश्वे देवासोक्तवाच पृथिवीमातर्मामाहिगुंसिर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्य वाचमुद्यादगुम् शुश्रूषेण्या मनुष्येभ्यस्तम् मा देव अवन्तु शोभाय पितरोऽनुमदन्तु ॐ शान्ति शान्ति शान्तिः तच्छञ्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीरुषा पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो हृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् भूतामृतत्वस्येषानः यदन्येनातिरोहति येतावानस्य महिमा अतोऽध्यायागुश्च पुरुषः पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतम् दिवे त्रिपादोर्ध्व उदये पुरुषः पादोऽस्येहाभवात् पुनः ततो विश्वम् यक्रामत् साशनानशने अभि तस्मात् विराट जायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चात् भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वत वसन्तो अस्यासीदाज्यम् ग्रीष्म इत्म शरद्भविः सप्तास्यादन् परिधयः त्रिसप्तसमिदः कृताः देवा यद्यज्ञम् धन्वानाः अबध्नन् पुरुषम् पशुम् तम् यज्ञम् बर्हिषि प्रोक्षण्ड पुरुषम् जातमग्रतः तेन देवा अयजन्ता साध्यारुषयश्चगे तस्माद्यज्ञात् सर्वभूतः संहृतम् मृषदाज्यम् पशोगस्तागुश्चक्रे वायव्यान आरण्यान् ग्राम्याश्चगे तस्माद्यज्ञात् सर्वभूतः रुचः सामानि जग्निरे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एकेचो भयादतः गावोह जग्निरे तस्मात् स
तस्माज्जाता अजावयः यत्पुरुषं यदधुः कथिधाव्यकल्पयन् मुखं किमस्य कौ बाहु कावोरुपादा उच्येते ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यकृतः पूरो तदस्य यद्वैष्यः पद्भ्यागुं शूद्रो अजायत चन्द्रमा मनसो जातः चक्षुः सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्ष्णोद्यौ समवर्तत पद्भ्याम् भूमित्तिशश्रोत्रात् तथा लोकागुम्मकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन्यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रदिशश्च तस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्थायनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सजन्ते यत्र पूर्वे साध्यासन्ति देवाः अद्भ्यः सम्भूतः पृथिवेरसाच्च विश्वकर्मणः समवर्तताधि तस्य त्वष्टा विदधद्रूपमेते तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते जनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीरा परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेधसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवाः सन्वशे ह्रेश्च ते लक्ष्मीश्च पत्न्यो अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्छय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्तिः। ॐ प्रातरग्निम् प्रातरिन्द्रगुम् हवामहे प्रातर्मित्रावरुणा प्रातरश्विना प्रातर्भगम् पोषणम् ब्रह्मणस्पतिम् प्रातः सोममुत रुद्रगुम् भुवेम प्रातर्जितम् भगमुग्रगुम् भुवेम भयम् पुत्रमदितेर्यो विधर्ता आद्रस्थिद्यम् मन्यमानस्तुरश्चिद्राजाच्छिद्यम् भगम् भक्षेत्याह भग प्रणेतर्भग सत्यराधो भगे माम् धियमुदवदन्नः भग प्रणो जनयगोभिरश्वैर्भग प्रणुभिर्नुवन्तस्याम उदेतानीम् भगवन्तस्यामोत प्रपित्व उत मध्ये अह्ना उतोदितामघवन् सूर्यस्य वयम् देवानागुम् सुमतौ स्याम भग एव भगवागुम् अस्तु देवास्तेन वयम् भगवन्तः स्याम तम् त्वा भगः सर्व इज्जो हवेमिशनु भगपुर एता भवेह समद्वरायोषसो न मन्ददधिक्रावेव शुचये पदाय अर्वाचीनम् वसुविदम् भगन्नो रथमिवाश्वावाजिन आवहन्तो अश्वावतीर्गोमतीर्न उषासो वीरवती सदमुच्छन्तु भद्राः घृतम् दुहाना विश्वतः प्रपीणा योऽयम् पात स्वस्तिभिः सदा नः यो माग्ने भागिनकुम् सन्तमथा भागम् चिकीरुषते अभागमग्ने तम् कुरु मामग्ने भागिनम् कुरु ॐ शान्ति शान्ति शान्तिः ॐ आसत्येन रजसावत्तमानो निवेशयन्नमृतम् मर्त्यम् च हिरण्ययेन सवितारथेन देवो याति भुवना विपश्यन् अग्निम् दूतम् वृणीमहि होतारम् विश्ववेदसम् अस्य यज्ञस्य सुक्रतुम् येषामीशे पशुपतिः पशूनाम् चतुष्पदामुत च द्विपदाम् निष्क्रीतोऽयम् यज्ञियम् भागमेतुराय स्पोष यजमानस्य सन्तो ॐ अधिदेवता प्रत्यधिदेवता सहिताय आदित्याय नमः ॐ आप्याय स्वसमेतु ते विश्वतः सोमवृष्णियम् भवावाजस्य सङ्गते अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा अग्निम् च विश्वशम्भुवमापश्च विश्वभेषजेः गौरीमिहाय सलिलानि तक्षत्येकपदे द्विपदे सा चतुष्पदे अष्टापदे नवपदे बभूवुषि सहस्राक्षर परमे व्योमन् ॐ अधिदेवता प्रत्यधिदेवता सहिताय सोमाय नमः ॐ अग्निर्मूर्धादिव ककुत्पति पृथिव्या अयम् अपागुम् रेतागुंसि चिन्वते श्योना पृथिविभवानुक्षरा निवेशने यच्छानः शर्म सप्रथाः
क्षेत्रस्य पतिना वयगुं हितेनेव जयामसि कामश्वं पोषयित्न वासनो मृडातीदृशे ॐ अधिदेवता प्रत्यधिदेवता सहिताय अङ्गारकाय नमः ॐ उद्बुद्ध्यस्वाग्ने प्रतिजागृह्येन मिष्टापूर्ते सगुं सृजेथ वयम् च पुनः कृण्वग्स्त्वा पितरम् युवानमन्वादागुंसि त्वयितन्तुमेतम् इदम् विष्णुर्विचक्रमे त्रेधा निदधे पदम् समूढमस्य पागुम् सुरे विष्णो दराटमसि विष्णो पृष्ठमसि विष्णो श्रप्त्रे स्तो विष्णो शूरसि विष्णो ध्रुवमसि वैष्णवमसि विष्णवे त्वा ॐ अधिदेवता प्रत्यधिदेवता सहिताय बुधाय नमः ॐ बृहस्पते अतियधर्यो अर्हाद्युमद्विभाति क्रतुमज्जनेषु यद्वेद यच्च वसर्त प्रजात तदस्मासु द्रविणम् धेहि चित्रम् इन्द्रमरुत्व इह पाहि सोमम् यथाचार्याति अपि वस्तुतस्य तव प्रणीति तव शूरशर्मन्नाविवासन्ति कवयः सुयज्ञाः ब्रह्मजज्ञानम् प्रथमम् पुरस्ताद्विषे मतः सुरुचोबेन आवह स बुद्धिया उपमा अस्य विष्टा सतश्च योनिमसतश्च विवः ॐ अधिदेवता प्रत्यधिदेवता सहिताय बृहस्पतये नमः ॐ प्रभः शुक्राय भानवे भरद्वगुम् हव्यम् मतिम् चाग्नये सुपूतम् यो दैव्यानि मानुषा जनो गुह्यन्तर्विश्वानि विद्मनाशिकाति इन्द्राणि मासु नारिषु सुपत्नि अहमश्रवम् न ह्यस्या अपरम् च न जरसा मरते पतिः इन्द्रम् वो विश्वतस्परिहवामहे जनेभ्यः अस्माकमस्तु केवलः ॐ अधिदेवता प्रत्यधिदेवता सहिताय शुक्राय नमः ॐ चन्नो देवीरभिष्टय आपो भवन्तु पीतये शय्योरभिश्रवन्तु नः प्रजापतेन त्वदेतान्यन्यो विश्वा जातानि परिता बभूव यत्कामात्ते जुहुमस्तन्नो अस्तु वयघ्रस्यामपतयोरयीणाम् इमम् यमप्रस्तरमाहि सीनाङ्गिरोभिः पितृभिः संविधानः आत्मन्त्रा कविशस्तावहन् त्वेनाराजन् हविषामादयस्व ॐ अधिदेवता प्रत्यधिदेवता सहिताय शनैश्चराय नमः ॐ कयानश्चित्र आभुवधूते सदा वृधः सखा कया शचिष्ठया वृता आयङ्गौ वृष्णिरक्रमीदनम् मातरम् पुनः पितरम् च प्रयन्सु वः यत्ते देवी निररुतिरा भवन् ददाम ग्रीवास्वविसत्यम् इदम् ते तद्विश्याम्यायुषो न मध्या तथा जीव पितुमद्भि प्रमुक्तः ॐ अधिदेवता प्रत्यधिदेवता सहिताय राहवे नमः ॐ केतुम् कृण्वन्न केतवे पेशो मर्या अपेशसे
समुषद्भिरजायथाः ब्रह्मा देवानाम् पदवी कवीनाम् ऋषिर्विप्राणाम् महिषो मृगाणाम् श्येनो गृध्राणागुस्वरिदर्वनानागुम् सोमः पवित्रमध्ये धिरेभन् सचित्रचित्रम् चितयन् तमस्मे चित्रक्षत्रचित्रतमम् वयोधाम् चन्द्रम् रहिम् गुरुवीरम् बृहन्तम् चन्द्रचन्द्राभिगृहते युवस्वा ओम् अधिदेवता प्रत्यधिदेवता सहितेभ्यः केतुभ्यो नमः ओम् आदित्यादिनवग्रहदेवताभ्यो नमो नमः ओम् शान्ति शान्ति शान्तिः ओम् जातवेदसे सुनवाम सोममराति यतो निदहाति वेदः स नः परिषदति दुर्गाणि विश्वानावेभ सिन्धुम् दुरितात्यग्निः तामग्निवर्णाम् तपसा ज्वलन्तीम् वैरोचनीम् कर्म फलेषु जुष्टाम् दुर्गाम् देवीम् शरणमहम् प्रपद्ये सुतरसि तरसे नमः अग्ने त्वम् पारयानव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा पोश्च पृथ्वे बहुला न उर्वे भवातोकायतनयाय शय्योः विश्वानि नो दुर्गः जातवेदस्सिन्धुन्ननावाधुरितातिपर्षि अग्ने अत्रिवन्मनसा गृहाणो स्माकम् बोध्य पिता तनूना हृतनाजितगुम् सहमानमुग्रमग्निगुम् हुवेम परमात् सधस्तात् स नः परिषदति दुर्गाणि विश्वाक्षामद्देवो अतिदुरितात्यग्निः प्रत्नोषि कमेद्यो अध्वरेषु सना च होतानव्यश्च सत्से स्वाञ्चाग्ने तनुवम् विप्रयस्वात्मभ्यम् च सौभगमायजस्वा गोभिर्जुष्टमयुजो निषिक्तम् तवेन्द्रविष्णोरनुसञ्चरेम नाकस्य पृष्ठमभिसंवसानो वैष्णवी लोक इह वादयन्ताम् कात्यायनाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्गे प्रचोदयात् राजाधिराजाय प्रसन्यसाहिने नमो वयम् वै श्रवणाय कुर्महे समे कामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो ददातु कुबेराय वै श्रवणाय महाराजाय नमः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महिमहेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति